एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपते विद्यादेवी भण्डारी भासते आर्थिक समृद्धिम् अधिगत्य नागरिकाणाम् सुखाय सर्वैः ध्यानम् केन्द्रीकर्तव्यम्। संघीय संसद ह्य उपविष्टम संयुक्तोपवेशम सम्बोधयन्ती राष्ट्रपति भण्डारी अवदत् संघ प्रदेश स्थानीय स्तराणाम् निर्वाचन सम्पादनमनु नवीन सर्वकारस्य संघटनस्य पश्चात् देशस्य राजनीत्या क्रमेण स्वरूपम् प्राप्तमस्तीति हेतोः इदानीम् सर्वैः आर्थिक विकासाय ध्यानम् केन्द्रीकर्तव्यम्। राष्ट्रपतिः भण्डारी आर्थिक क्षेत्रे दृष्टाः समस्याः समाधाय संविधानस्य मार्गदर्शनानुसारेण स्वतन्त्रस्य समृद्धस्य च अर्थतन्त्रस्य विकसनस्य दिशि राज्यस्य सर्वैः निकायैः परिचालितैर्भाव्यमिति प्रत्यपादयत्। राष्ट्रपतिः भण्डारी अवोचत् कोविड उनविंशतेः कारणेन विश्वस्य अर्थतन्त्रे सृष्टात् प्रभावात् नेपालोऽपि अस्पृष्टो नाभूत् इति हेतोः अर्थतन्त्रस्य सुदृढीकरणाय गभीरः प्रयत्नः चालनीयः। राष्ट्रपतिना भण्डारिणा भासितम् कृष्युत्पादनात् ऊर्जसः पर्यटनक्षेत्रस्य च विकासाच्च सर्वकारेण अधिकलाभप्राप्तेः सम्भावनायाः विद्यमानत्वात् तत्र विशेष ध्यानम् प्रदानम् आवश्यकम् वर्तते। राष्ट्रपतिः भण्डारी संविधानेन विधिना च निश्चितायाः प्रत्याभूतेः अनुरूपम् महिलानाम् विरूद्धे विधीयमानायाः हिंसायाः अद्यापि असमाप्तेः कारणमन्विष्य अक्रियान्वितानाम् नीति कार्यक्रमाणाम् पुनरावलोकनम् आवश्यकमस्तीति अकथयत। राष्ट्रपतिः भण्डारी सम्बोधनस्य क्रमे स्वास्थ्यस्य शिक्षाया सूचना प्रविधेश्च विकासेन देशस्य समुन्नतये विशेष कार्ययोजनया युवजनशक्तिम् परिचाल्य अग्रे वर्धनस्य आवश्यकताम् च प्रादर्शयत। राष्ट्रपतिः भण्डारी आत्मना सम्बोधनस्य क्रमे उत्थापिताः विषयाः सर्वकारेण आगामी नीति कार्यक्रमेषु समावेक्ष्यन्ते इति विश्वासम् व्यनक। नेपालस्य संविधानस्य पञ्चनवतितम्याः धारायाः अनुसारेण संघीय संसदः उभयोरेव सदनयोः संयुक्तोपवेशः राष्ट्रपतिना भण्डारिणा सम्बोधितो वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिणा संघीय संसद द्वयोरेव सदनयोः उपवेशे विहितस्य सम्बोधनस्य पश्चात् ह्य एव प्रतिनिधिसभायाः राष्ट्रियसभायाश्च पृथक् पृथक् उपवेशेन धन्यवाद प्रस्तावः सर्वसम्मत्या पारितीकृतो वर्तते। तयोः उभयोः एव उपवेशयोः प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन राष्ट्रपतिना विद्यादेवी भण्डारिणा संघीय संसद द्वयोरेव सदनयोः संयुक्तोपवेशे विहितस्य सम्बोधनस्य प्रतिरूपम् प्रस्तुतम् आसीत्। अपरोपवेश स्व माघस्य 29 दिवसे रविवासरे त्रिवादने वस्ता। राष्ट्रियसभायाः उपवेशश्च फाल्गुन मासस्य द्वितीय दिवसे मंगलवासरे दिवा एकवादने वस्ता। सत्तायाम् सहकार्यम् कुर्वताम् दलानाम् उच्चस्तरीय राजनीतिक संयन्त्रस्य उपवेशे मन्त्रिपरिषदे पूर्णतायाः प्रदानस्य विषये विमृष्टमस्ति। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे उपवेशे राष्ट्रिय स्वतन्त्र दलस्य सर्वकारे प्रत्यावर्तनादिषु सर्वकार सञ्चालनस्य विषयेषु विमृष्टम् वर्तते। संयन्त्रस्य उपवेशे राष्ट्रपतेः प्रत्याशितायाः विषये किमपि न विमृष्टमिति प्रधानमन्त्रिणः संचार संयोजकः सूर्य किरण शर्मा ज्ञापयति। उपवेशे विगतस्य कार्याणाम् समीक्षया सह आगामि योजनायाः सामयिक राजनीतिक विषयेषु विमृष्टमिति असौ अबोधयत। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः, नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली, राष्ट्रिय प्रजातन्त्र दलस्य सभापतिः रवि लामिछाने, राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङदेन च सहभागिनः आसन्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य महाप्रबन्धकस्य प्रेमनाथ ठाकुरस्य निलम्बनाय नेपाल नागरिकोड्डयन प्राधिकरणम् निर्दिष्टम् अस्ति। अवैधानिक रूपेण केनचित् वायुसेवा संस्थानेन सह लाभग्रहणस्य उद्देश्येन विहितायाः वार्तायाः श्रव्य सामग्रीणाम् प्राप्तेः अनन्तरम् मन्त्रालयेन प्राधिकरणाय पत्राचारम् विधाय एवम् निर्दिष्टम् वर्तते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य सहसचिवः प्रवक्ता च राजेन्द्र कुमार केसी विषयेऽस्मिन् अतिरिक्तम् अनुसन्धातुम् मन्त्रालयेन अधिकार दुरूपयोगानुसन्धानायोगः अनुरुद्धोऽस्तीति अज्ञापयत्। सुदूर पश्चिम प्रदेशस्य नवनियुक्तः मुख्यमन्त्री कमल बहादुर शाह ह्य पदगोपनीयतयोः शपथेन प्रतिज्ञापितो वर्तते। प्रदेश प्रमुखस्य कार्यालये आयोजिते समारोहे प्रदेश प्रमुख देवराज जोशी नवनियुक्त मुख्यमन्त्रिणां साहं पदगोपनीयतायोः शपथम् अग्राहयत। मुख्यमन्त्रिणा सह नवनियुक्त मन्त्रीद्वयं प्रकाश बहादुर देउवा नरेश कुमार शाही च पदगोपनीयतायोः शपथम् गृहीतवन्तौ। देउवा नेपाली कांग्रेस दलात शाही नेकपा एकीकृत समाजवादी दलात च मन्त्रीमण्डले सहभागी नौ स्त। पदभारम निर्वहन मुख्यमन्त्री शाह भ्रष्टाचारस्य नियन्त्रणाय प्रादेशिक कार्य योजना निर्माण समितिम् संघटयितुम् निर्णीतमिति अवोचत। मुख्यमन्त्री शाह अगदत संघटितया समित्या त्रिंशतो दिनानाम् अभ्यन्तरे प्रतिवेदनम् अर्पयिष्यते। तस्य आधारेणैव भ्रष्टाचारस्य नियन्त्रणाय अतिरिक्त योजना अग्रे वर्धापयिष्यते। अत्रान्तरे ह्य उपविष्टेन प्रदेश सर्वकारस्य मन्त्री परिषद प्रथमोपवेशेन मादकौषध दुर्व्यसनीनाम् उपचाराय पुनस्थापना केन्द्रम् संस्थापयितुम् एतदर्थम् आन्तर विषय विधि मन्त्रालयेन सम्बद्ध निकायस्य समन्वय कार्यम् अग्रे वर्धयितुम् च निर्णीतमस्ति। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा संसदीय विचाराधीनम् सार्वजनिक सेवा प्रसारण विधेयकम् निर्णेतुम् आत्मना भूमिका निर्विह्यते इति भाषते। रेडियो नेपाल कर्मचारी संघस्य केन्द्रीय अधिवेशनम् ह्य सिंहप्रासादे उद्घाटयन् महामन्त्री थापा सार्वजनिक सेवा प्रसारण विधेयके विद्यमानानाम् न्यूनता दुर्बलतानाम् सुधारम् विधाय निष्कर्षे प्रापयितुम् प्रयत्यते इति प्रतिबद्धताम् व्यक्तवान्। महामन्त्री थापा रेडियो नेपालस्य इतिहास प्रजातान्त्रिक मूल्येन विचार सह सम्पृक्तोऽस्ति एवं संचार स्वतन्त्रतायाम् एतस्य भूमिका महत्वपूर्णा वर्तते इति च प्रतिपादयन् अभाषत। रेडियो नेपालेन अन्येभ्य संचार माध्यमेभ्य अग्रणी भूमिकायाम् स्थातव्यम्। रेडियो नेपालस्य कार्यकारी निर्देशक बुद्धिबहादुर केसी अवोचत सर्वकारस्य नित्यनुसारेण देशस्य सर्वेषु भूभागेषु रेडियो प्रसारणस्य विस्तारम् प्रापयितुम् रेडियो नेपाल प्रतिबद्धतया क्रियाशीलो वर्तते। कार्यक्रमे नेपाल ट्रेड युनियन कांग्रेस संघस्य महासचिव योगेन्द्र कुंवर यूएनआई नेपालस्य अध्यक्ष शंकर लामिछाने च विचारम् व्यक्तवन्तौ। रेडियो नेपालस्य नायब कार्यकारी निर्देशक खगेन्द्र खत्री अब्रवीत संस्थाया स्थापनाया उद्देश्यानुसारेण अग्रे कर्मचारी संघस्य आगामी नेतृत्वेन प्रयत्न कर्तव्य। कार्यक्रमे कर्मचारी संघस्य अध्यक्ष चेत नारायण पौड्याल नेपाल सार्वजनिक सेवा कर्मचारी संघस्य महासचिव परशुराम पुडासैनी पब्लिक मीडिया फोरम संस्थाया अध्यक्ष दुर्गा फुयालस्य धारणाम उपस्थापयन्। अधिवेशनेन चेत नारायण पौड्यालस्य अध्यक्षतायाम् एकविंशति सदस्यीया नूतना कार्यसमिति प्रचिता वर्तते। कार्यसमिति सहाध्यक्षे पराग पोखरेल प्रचितो वर्तते एवमेव वरिष्ठ उपाध्यक्ष शंकर भण्डारी मुकुन्द भण्डारी च प्रचितो वर्तेते। प्रधानमन्त्रिणा पुष्पकमला दाहाल प्रचण्डेन सह नेपालस्य कृते साउदी अरबिया देशस्य राजदूत साब अबु हाइमेद ह्य शिष्टाचार मेलनम् अकरोत्। प्रधानमन्त्री मन्त्री परिषद सिंह प्रसाद वर्तिनी कार्यालये विहिते तस्मिन् मेलने एतयोर्मध्ये द्विपक्षीय सम्बन्धस्य सहकार्यस्य च विविध विषयेषु विमृष्टमिति प्रधानमन्त्रिण सचिवालयेन ज्ञापितम् वर्तते। ह्य एव प्रधानमन्त्रिणा दाहालयेन सह नेपालस्य कृते बंगलादेशस्य राजदूत सलाहुद्दीन नोमन चौधरी च मेलवार्ताम् व्यदधात्। मेलने एतयोर्मध्ये नेपाल बंगलादेशयो सम्बन्धस्य पारस्परिक हितस्य च विषययो विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितमस्ति। इति समाचारः।